इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। आदौ मुख्यवार्ताः। विदेशमन्त्री डॉ एस जयशंकरः अकथयत् यत् कनाडादेशः विवरणं विनैव दत्त्वा कस्यापि आरोपस्य स्वरूपं विकसितवान्। तेन सबलं प्रतिपादितं यत् कनाडादेशे च भारतीय कूटनीतिज्ञानां पर्यवेक्षणम् अस्वीकार्यम् इति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः एशिया महाद्वीपस्य सुदृढीकरणे वैश्विक शान्तिं स्थापयितुं च बौद्धधर्मस्य भूमिकां चर्चितवती। झारखंड विधानसभायै नैर्वाचनिक प्रचाराभियानं सजवं सशक्त्या च प्रवर्तते। चतुर्दिवसीयः छठ पूजोत्सवः अद्यारभ्य नहाय खाय इत्यनेन अनुष्ठानेन साकं समारब्धं। प्रधानमन्त्री नरेन्द्रमोदी शुभावसरेस्मिन् श्रद्धालुभ्यः शुभकामनाः अयच्छत्। अमेरिकादेशे राष्ट्रपति पदाय निर्वाचनं समारब्धं। रिपब्लिकन दलस्य राष्ट्रपति पदाय प्रत्याशी भूतः डोनाल्ड ट्रम्पः, डेमोक्रेटिक दलस्य च प्रत्याशी भूता कमला हैरिस इत्येषा च संघर्षरतौ स्तः। अपि च टेनिस क्रीडायां भारतस्य ऋत्विक चौधरी, बोल्लीपल्ली इत्येषः, तस्य च पुर्तगालस्य सहयोगी फ्रांसिस्को कैब्राल इत्येषः फ्रांसदेशे मोसेल ओपन टेनिस प्रतिस्पर्धायाः पुरुषयुगलस्य प्रागुपान्त्यचक्रे समाविष्टवन्तौ। सम्प्रति वार्ताः विस्तरेण। विदेशमन्त्री डॉ एस जयशंकरः अवोचत् यत् कनाडादेशे हिन्दू देवालयस्य उपरि आक्रमणम् अतीव चिन्ताजनकम् अस्ति। अद्य प्रातः कैनबरा नगरे ऑस्ट्रेलिया देशस्य स्वीयेन समकक्षेण पेनी वांग इत्यनया सह संयुक्त वार्ताहर सम्मेलने डॉ जयशंकरः चिन्तां प्रकटितवान् यत् कनाडादेशे अतिवादी शक्तीनां कृते राजनीतिक स्थानं दीयते। असौ अकथयत् कनाडादेशः विवरणं न दत्त्वा कस्यापि आरोपस्य स्वरूपं विकसितवान् इति। कनाडादेशे भारतीय कूटनीतिज्ञानां निरीक्षणम् अस्वीकार्यम् इत्यपि सः अवोचत्। कैनबरानगरे हिन्दुमन्दिराणाम् उपरि कृतानाम् आक्रमणां विषये पृष्टे सति आस्ट्रेलियादेशस्य विदेशमन्त्री एतानि आक्रमणानि भारतीयसमुदायस्य कृते क्लेशकराणि सन्तीति कथितवती। अनया समुदीरितं यत् सर्वे ऑस्ट्रेलिया देशीयाः सुरक्षायाः सम्मानस्य च अधिकारिणः वर्तन्ते, तावत् तेषाम् आस्था संस्कृतिः च कापि स्यादिति। इतः पूर्वं विदेशमन्त्री डॉ जयशंकरः अद्य ऑस्ट्रेलिया देशस्य विदेशमन्त्रिणा सह पञ्चदशतमायां भारत ऑस्ट्रेलिया देशयोः विदेशमन्त्रिमण्डलस्य औपचारिक वार्तायां भागम् अगृह्णात्। उभौ मन्त्रिणौ भारत ऑस्ट्रेलिया देशयोः समीपस्थेषु भारत प्रशान्त प्रदेशे पश्चिमेशिया देशे वैश्विक सामरिक परिदृश्यस्य च विषये चर्चां कृतवन्तौ। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य अवदत् यत् भारतं धम्मस्य धन्यभूमिः अस्ति, तथा च प्रत्येकस्मिन् युगे महान् गुरु मनीषिणः च अभवन्। नवदिल्ल्यां प्रथमं एशियाई बौद्ध शिखर सम्मेलनं सम्बोधयन्ती राष्ट्रपतिः मुर्मुः प्रावोचत् यत् एतेषां पथ प्रदर्शकानां मध्ये भगवतः बुद्धस्य विशिष्ट स्थानम् अस्ति इति। बुधगया नगरस्य बोधिवृक्षस्य अधः सिद्धार्थ गौतमस्य ज्ञानोदयः इतिहासे अद्वितीया घटना अस्ति इत्यपि राष्ट्रपतिः प्रोक्तवती। राष्ट्रपतिः अग्रे अवदत् यत् यदा अद्य जगतः अनेकेषु क्षेत्रेषु अस्तित्वसंकटस्य सम्मुखीकरणं भवति तदा बौद्धसमुदायस्य समीपे मानवजातीनां कृते बहुमात्रायां ज्ञानानि सन्ति।
इफ वन वर्ड केन कैप्चर द बुद्ध धर्म इट हैज टू बी करुणा और पैशन व्हिच इज व्हाट द वर्ल्ड नीड्स टुडे। वी नीड टू डिस्कस द रोल ऑफ बुद्ध धर्म इन स्ट्रेंथनिंग एशिया। Indeed, we need to expand the discussion to see how Buddha Dharma can bring real peace to Asia and to the world.
राष्ट्रपतिना एशिया महाद्वीपस्य सुदृढीकरणे बौद्धधर्मस्य भूमिकायाः विषये चर्चायाः आवश्यकतायाः उपरि अवधानं दत्तं, तथा च एशिया देशे च विश्वे च कथं वास्तविक शान्तिम् आनेतुं शक्यते इत्यपि प्रोक्तम्। झारखंड राज्यस्य पूर्ववर्तीषु क्षेत्रेषु नैर्वाचनिक प्रचाराभियानं सजवं प्रवर्तते। प्रत्येकस्मिन् क्षेत्रे प्रथमचरणीय मतदानं अस्य मासस्य त्रयोदश दिनांके भविता। प्रचाराभियाने उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगी आदित्यनाथेन प्रदेशस्य मुख्यमन्त्री हेमन्तसोरेनः आरोपितः यत्तेन प्रदेशोऽयं नष्टीकृतः इति। श्री आदित्यनाथः कोडरमाया दोमचाचीति क्षेत्रे सभामेकां सम्बोधयन् आसीत्। अपरत्र प्रदेशस्य मुख्यमन्त्रिणा वरिष्ठ झामुमो नेत्रा हेमन्तसोरेन च भाजपेति दलस्योपरि धर्माधारित विभाजनस्य आरोपः आरोपितः। तत्रैव रक्षामन्त्रिणः राजनाथसिंहस्य नैर्वाचनिकसभेऽपि रांची लोहारडागा इत्येतयोः क्षेत्रयोः सुनिश्चिते। एतन्मध्ये कांग्रेसदलाध्यक्षेण मल्लिकार्जुन खड्गे इत्यनेनापि INDIA इति संघस्य प्रत्याशिनां पक्षे मतदानाय माण्डुकार्के इत्येतयोः क्षेत्रयोः मतदातृभिः समं अभ्यर्थना कृता। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च newsonair इति चलदूरभाषीयतन्त्रांश्यपि उपलब्धो भविष्यति। चतुर्दिवसीयः छठपूजोत्सवः अद्यारभ्य नहाय खाय इत्यनेन अनुष्ठानेन साकं समारब्धम्। बिहारराज्ये बृहत्संख्यायां श्रद्धालवः गंगा, कोसी, गण्डक, बागमती नदीनां तटेषु सूर्योपासनायै एकत्रिताः जाताः। तत्रैव नेपालदेशस्य निम्नवर्तीषु क्षेत्रेषु काठमाण्डुराजधान्यां च ये केऽपि सरित्सरोवराः सन्ति छठोत्सवोपलक्ष्य समेषां स्वच्छीकरणोपक्रमः सौन्दर्यीकरणञ्च प्रचाल्यते। सर्वोच्चन्यायालयेन उत्तरप्रदेश मदरसा शिक्षा बोर्ड अधिनियमस्य 2000 संवैधानिक वैधता यथावदेव स्थापिता। भारतस्य मुख्यन्यायाधीशस्य TY चन्द्रचूडस्य न्यायमूर्तिन्योः JB पारदीवाला मनोज मिश्रयोश्च एकेन खण्डपीठेन मार्चमासस्य 22 इलाहाबाद उच्चन्यायालयस्य सः निर्णयः निरस्तीकृतः यस्मिन् अयम् अधिनियमः असंवैधानिक धर्मनिरपेक्षतयोः सिद्धान्त विरुध्य घोषितः आसीत्। शीर्षन्यायालयस्य कृतव्यवस्थानुसारि उत्तरप्रदेशे मदरसा इति कार्यं करिष्यन्ति एव प्रशासनस्य च समीपे शैक्षिकमानकनिर्धारणाय अधिकारोऽपि भविष्यति। अप्रैलमासारम्भे विवादितनिर्णयस्य रोधनं कृत्वा एकेन पीठेन यस्मिन् न्यायमूर्तिनौ JB पारदीवाला मनोजमिश्रौ सम्मिलितौ आस्ताम् कथितं यत् इलाहाबाद उच्चन्यायालयेन मदरसा अधिनियमानां प्रावधानानि त्रुटिपूर्णानि स्वीकृतानि। अमेरिकादेशे राष्ट्रपतिपदाय निर्वाचनं समारब्धम्। रिपब्लिकन दलस्य राष्ट्रपतिपदाय प्रत्याशीभूतः डोनाल्ड ट्रम्पः, डेमोक्रेटिक दलस्य च प्रत्याशीभूता कमला हैरिस इत्येषा च संघर्षरतौ स्तः। वर्मोंट इति क्षेत्रे मतदानं समारब्धमस्ति। आगामिषु कतिपय होरासु अनेनैव प्रकारेण अग्रिम राष्ट्रपतित्वेन निर्वाचनाय अन्नान्यपि राज्यानि अग्रे गमिष्यन्ति। भारतीय निर्वाचनायोगेन अम्बर लाकड़ा इत्यमुं देवघर क्षेत्रस्य नूतनः आरक्षी अधीक्षकः नियुक्तः। अजीत पटेल डुंगडुंग इत्यमुं च निष्कासितः। आयोगेन प्रदेश प्रशासनं निर्दिष्टं यत् आरक्षी अधीक्षकत्रयस्य प्राशासनिक अधिकारिणां समूहस्य नाम प्रेषणं कुर्यादिति। पश्चिम महाराष्ट्रस्य सर्वेषु प्रायः क्षेत्रेषु नैर्वाचनिक प्रचाराभियानं द्रुततां भजते। इतः आहत्य 44,000+ जनाः प्रत्याशित्वेन स्वकीयं भाग्यं परीक्षन्तः सन्ति, येषु नैके वरिष्ठाः दलनेतारः अपि सन्ति। अन्ते च मुख्य क्रीडा वार्ता। टेनिस क्रीडायां भारतस्य ऋत्विक चौधरी बोल्लीपल्ली इत्येषः, तस्य च पुर्तगालस्य सहयोगी फ्रांसिस्को कैब्राल इत्येषः फ्रांसदेशे मोसेल ओपन टेनिस प्रतिस्पर्धायाः पुरुषयुगलस्य प्रागुपान्त्यचक्रे समाविष्टवन्तौ। अन्ते च मुख्यवार्ताः पुनरेकवारम्। विदेशमन्त्री डॉ एस जयशंकरः अकथयत् कनाडादेशः विवरणं विनैव दत्त्वा कस्यापि आरोपस्य स्वरूपं विकसितवान्। राष्ट्रपतिः द्रौपदी मुर्मुः एशिया महाद्वीपस्य सुदृढीकरणे वैश्विकशान्तिं स्थापयितुं च बौद्धधर्मस्य भूमिकां चर्चितवती। इति वार्ताः।